इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी अद्यारभ्य साइप्रस, कैनेडा, क्रोशिया देशानां पञ्चदिवसीय यात्रायां वर्तते। प्रधानमन्त्री मोदी अद्य साइप्रस देशस्य राष्ट्रपतेः निकोस क्रिस्टोडोलिडेस इत्यस्य आमन्त्रणेन साइप्रस देशस्य आधिकारिक यात्रायाम् दशकद्वये प्रधानमन्त्रिणः साइप्रस देशस्य प्रथमा यात्रा वर्तते। स्वस्य यात्रायाः द्वितीय पादे कनाडा देशस्य प्रधानमन्त्रिणः मार्क कार्नी इत्यस्य आमन्त्रणेन श्रीमोदी सप्त शिखर सम्मेलने भागं गृहीतुं कनाडा देशस्य कनास्कास नगरं गमिष्यति। G7 शिखर सम्मेलने प्रधानमन्त्री षष्ठं वारं भागं स्वीकरिष्यति। स्वीय यात्रायाः अन्तिमपादे प्रधानमन्त्री मोदी क्रोशिया देशस्य आधिकारिक यात्रां करिष्यति। भारतीय प्रधानमन्त्रिणः क्रोशिया देशस्य प्रथमा यात्रा भविष्यति, यत् द्विपक्षीय सम्बन्धेषु महत्वपूर्णा सिद्धा भविष्यति। प्रधानमन्त्रिणः त्रयाणां राष्ट्राणां यात्रा साइप्रस नगरात् आरभ्यते। केन्द्रीय गृहमन्त्री अमितशाहः पुनः अवोचत् यत् राष्ट्रिय सुरक्षायाः प्राधान्यं वर्तते, येन स्पष्टं भवति यत् भारतस्य सम्प्रभुतायाः खण्डने ये प्रयासं करिष्यन्ति तस्य प्रयासस्य समुचितः प्रतिकारः भविष्यति। तेन उक्तं यत् राष्ट्रहितस्य रक्षणार्थं सर्वकारः सदैव तत्परः विद्यते। सः ह्यः मध्यप्रदेशस्य पचमढ़ी नगरस्य सुन्दर पर्वत स्थाने भारतीय जनता पार्टीति दलस्य MP MLA प्रशिक्षण शिविरे जनसमूहं सम्बोधयन् आसीत्। नागरिक उड्डयन मन्त्री राममोहन नायडूः उक्तवान् यत् नागरिक उड्डयन महानिदेशालयेन भारतीय विमान संघे विद्यमानानां चतुस्त्रिंशत् बोइंगतः विमानोत्पादकानां 87,700 विमानानां विस्तृत निरीक्षणाय आदिष्टम्। तेषु 8 तत्कालं निरीक्षितानि।
We have circulated the order also. The high-level committee is going to investigate this crash. The Home Secretary is going to be the chairman of the committee. Secretary, Ministry of Civil Aviation, additional secretary from MHA, one representative from the state of Gujarat, representative from State Disaster Response Authority, Government of Gujarat, Police Commissioner Ahmedabad, DG Inspection and Safety from the Indian Air Force, DG BCAS, DG DGCA, Special Director from IB, and Director from the Directorate of Forensic Sciences Services.
इसरो संस्थया उत्तर प्रदेशस्य कुशीनगरे रॉकेट प्रक्षेपण परीक्षणं सफलतया कृतम्। ह्यः रॉकेट प्रक्षेपण परीक्षणं प्रथमवारं उत्तर प्रदेशस्य भूमौ समभवत्। थ्रस्ट टेक इंडिया लिमिटेड इत्यस्य सहयोगेन आयोजिते परीक्षणे रॉकेट 1.1 किलोमीटर मितस्य आरोहणं कृत्वा पूर्णतया सफलम् अभवत्। भारते तावत् आगामिषु केषुचित् दिवसेषु तापतरंगस्य स्थित्यां परिष्कारस्य अपेक्षा वर्तते। आकाशवाण्या सह चर्चायां भारत ऋतु विभागस्य वैज्ञानिकः नरेश कुमारः अवोचत् यत् पंजाब, हरियाणा, दिल्ली NCR क्षेत्राणां केषुचित् भागेषु वज्रपातेन सह वृष्टेः संभावना वर्तते। भारतस्य प्रणति नायकः गतरात्रौ एशियन आर्टिस्ट जिम्नास्टिक्स प्रतियोगितायां महिलानां वर्गे कांस्य पदकं विजितवती। प्रतिस्पर्धा इयं कोरियायाः जेचियन इत्यत्र आयोजिता। स्वच्छं सुस्थिरं च विकासं प्रवर्धयितुम् अद्य वैश्विक वायु दिवसः वैश्विक रूपेण आचर्यते। भारते तावत् नूतन पुनर्नवीकरणस्य ऊर्जा मन्त्रालयः अद्य प्रातः 9 बेंगलुरु नगरे 50 GW पवनशक्तिं प्राप्तुं भारतस्य प्रमुखोपलब्धिं प्रकाशयितुं विशेष कार्यक्रमस्य आयोजनं च करोति। अयं कार्यक्रमः ग्रामीण विकासे हरित कार्येषु पवनशक्तेः भूमिकां प्रकाशयिष्यति इति वार्ताः।